तृतीय स्कंध अथ पंचमोध्याय श्री शुक उवाच द्वारी दुनद्या ऋषभ कुरुणा मैत्रेयमासीन मगाध बोधम छत्तोपसृत्या चित भाव शुद्ध पप्रच्छ सौशील्य गुणाभितृप्त विदुर उवाच सुखाय कर्माणि करोति लोको नतः सुखं वान्यदुपारमं वा बिन्देत भूयस्ततैव दुःखं जदत्र युक्तं भगवान् बदेर्नः जनस्य कृष्णाद्विमुखस्य दैवादधर्मशीलस्य सुदुःखितस्य अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य तत्साधुवर्जादिशवर्त्मसम्नः संराधितो भगवान् येन पुंसाम् हृदि स्थितो यच्छति भक्तिपूते ज्ञानं सतत्वाधिगमं पुराणम् करोति कर्माणि कृतावतारो जान्यात्मतन्त्रो भगवांस्त्रधीशः यथा ससर्जाग्रहिदं निरीह संस्थाप्य वृत्तिं जगतो विधत्ते यथा पुनः स्वेखैदं निवेश्य श्वेते गुहायां सन्निवृत्तवृत्तिः योगेश्वराधीश्वर एकैतद् अनुप्रविष्टो बहुधा यथा आसीत् क्रीडन् विधत्ते द्विजगोऽसुराणां क्षेमाय कर्माण्यवतारभेदैः मनो न तृप्यत्वपि शृण्वतां न सुश्लोकमौलेश्चरितामृतानि यस्तत्त्वभेदैरधिलोकनाथो लोकान् लोकान् सहलोकपालान् अचित् लिपद्यत्र हि सर्वसत्त्वनिकाय भेदोऽधिकृतः प्रतीतः येन प्रजानामुत आत्मकर्म रूपाभिधानं च भिदां व्यधत्त नारायणो विश्वसृजात्मजोनि रेतच्चनो वर्णय विप्रवर्ज परावरेषां भगवन् व्रतानि श्रुतानि मे व्यासमुखादभीक्ष्णम् अतृप्नुमाश्छुल्ल सुखावहानां तेषां मृते कृष्ण कथामृतौ घात् क्वस्तृप्नुयात् तीर्थपदोऽभिधानात् सत्त्वेषु वः सूरिभिरीड्यमानात् यः कर्णनाडीं पुरुषस्य जातो भव प्रदां गेहरतिं छिनत्ति मुनिर्विवक्षुर्भगवद्गुणानां सखापिते भारतमाह कृष्णः यस्मिन् नृणां ग्राम्य सुखानुवादैर्मतिर्गृहीतानुहरे कथायां सा शुद्धधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः हरेः पदानुस्मृतिनिर्मितस्य समस्तदुःखातेमाशु धत्ते तञ्छोच्य शोच्या न विदोऽनुशोचे हरेः कथायां विमुखानघेन क्षिणोति देवो निमिषस्तु येषाम् आयुर्वृथावाद् गतिस्मृतीनाम् तदस्य कौशारवशर्म दातुर्हरेः कथामेव कथासुसारम् उद्धृत्य पुष्पेभ्यैवात्बन्धो शिवाय नः कीर्तय तीर्थकीर्तेः स विश्वजन्मस्थित संयमार्थे कृतावतारः प्रगृहीत शक्तिः चकार कर्माणतिपुरुषाणि जानीश्वरः कीर्तयतानि मह्यम् श्रीशुक उवाच स एवं भगवान् पृष्टच्छत्रा कौशारवीर्मुनिः पुंसां निःश्रेयसार्थेन तमाह बहुमानयम् मेत्रे उवाच साधु पृष्टं त्वया साधो लोकान् साधुनुगृह्णता कीर्तिं वितन्वता लोके आत्मनो धोक्षजात्मनः नैतच्चित्रं त्वयि छत्तर्बादरायण वीर्जजे गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वरः माण्डव्यशापाद् भगवान् प्रजा संयमनो यमः भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवती सुतात् भवान् भगवतो नित्यं सम्मतः सानुगस्य च यस्य ज्ञानोपदेशाय मा दिशद्भगवान् व्रजन् अथ ते भगवल्लीला योगमायोपबृंहितः विश्वस्थित्युद्भवान्तार्था वर्णयाम्यनुपूर्वशः भगवानेक आसेदमग्र आत्मात्मनां विभु आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः सवा एष तदा द्रष्टा नापश्य दृश्यमेकरात् मेने असन्तमिव आत्मानं सुप्तशक्तिरसुप्तदृक् सवा एतस्य संद्रष्टु शक्ति सदसदात्मिका माया नाम महाभाग जजेदम निर्ममे विभु कालवृत्त्या तु मायायाम गुणमय्याम अधोक्षज पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान ततो भवद् महत्तत्त्वम् अव्यक्तात् कालचोदितात् विज्ञानात्मात्मदेहस्थम् विश्वम् व्यञ्जनस्तमोऽनुदः स्वप्यंशगुणकालात्मा भगवद्दृष्टिगोचरः आत्मानम् व्यकरोदात्मा विश्वस्याशिशिशिशिक्षया महत्तत्त्वाद् विकुर्वाणाद् अहम् तत्त्वम् व्यजायत कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमयः वैकारिकस्तजसस्ततामसश्चेत्यहम् त्रिधा अहम् तत्त्वाद् विकुर्वाणाद् मनो वैकारिकादभूत् वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनम् तजतः तैजसानिन्द्रियाण्येव ज्ञानकर्मयानि च तामसो भूतसूक्ष्मादिर्जतः खम् लिङ्गमात्मनः कालमायांशयोगेन भगवद्वीक्षितम् नभ नवसोऽनुसृतम् स्पर्शम् विकुर्वन् निर्ममे निलम् अनिलोऽपि विकुर्वाणो नवसोरुबलान्वित ससर्जरूप तन्मात्रम् ज्योतिर्लोकस्य लोचनम् अनिलेनान्वितम् ज्योते विकुर्वत् परवीक्षितम् अधत्ताम्भोरश्मयम् कालमायांशयोगतः ज्योतिषाम्भोन् संसृष्टम् विकुर्वद् ब्रह्मवीक्षितम् महिम् गन्धगुणामाधात् कालमायांशयोगतः भूतानाम् नभयादीनाम् यद्यद्भव्यावरावरम् तेषाम् परानुसंसर्गात् यथा सङ्ख्यम् गुणान् विदुः एते देवाः कलाः विष्णोः कालमायांशलिङ्गिनः नानात्वात् स्वक्रियानिशः प्रोचुः प्राञ्जलयो विभुम् देवा ऊचुः ननामते देव पदारविन्दम् प्रपन्नतापोपशमातपत्रम् जन्मूलकेता जतयञ्जसोरु संसार दुःखम् बहिरुत्क्षिपन्ति धातर्जदस्मिन् भवै सजीवास्तापत्रयेणोपहता न शर्म आत्मन् लभन्ते भगवन्तवाङ्घ्रिक्षायाम् सविद्यामत आश्रयेम मार्गन्ति जत्ते मुखपद्मनीडैश्छन्दः सुपर्णैरिषयोर्विविक्ते यस्याघमर्षद सदि सरिद्वरायः पदम् पदम् तीर्थपदः प्रपन्नः यच्छ्रद्धया श्रुतवत्या च भक्त्या संवृज्यमाने हृदयवधाय ज्ञानेन वैराग्यबलेन धीरः व्रजेम तत्तिङ्ग्रिसरोजपीठम् विश्वस्य जन्मस्थितसंयमार्थे कृतावतारस्य पदाम्बुजम् ते ब्रजेम सर्वे शरणम् जदीश स्मृतम् प्रयच्छत्तभयम् स्वपुंसाम् यच्चानुबन्धे सति देहगेहे ममाहमित्युढदुराग्रहाणाम् पुंसाम् सुदूरम् वसतोऽपि पुर्याम् भजेम तत्ते भगवन् पदाब्जम् तान्वै यसद्वृत्तिभिलक्ष्मिभिर्ये पराहित हृतान्तर्मनसः परेश अथो न पश्यन्तु दुर्गाय नूनम् एते पदन्यासविलासलक्ष्म्यः पानेन ते देवकथासुधाया प्रवृद्धभक्त्या विशदाशयाये वैराग्यसारम् प्रतिलभ्यबोधम् यथाञ्जसान्वीयूरकुण्ठधिष्यम् तथा परेचात्मसमाधियोगा बलेन जित्वा प्रकृतिम् बलिष्ठाम् त्वामेव धीरः पुरुषम् विशन्ति तेषाम् श्रमस्या न तु सेवयाते तत्ते वयम् लोकस्य शिक्षयाद्य त्वया न सृष्टास्त्रिभिरात्मभीष्म सर्वे वियुक्ताः स्वविहारतन्त्रम् न शक्नुमस्तत्प्रतिहर्तवेते यावद्बलिम् तेजहराम काले यथा वयम् चान्मदाम यत्र थो भयेषाम् तैमे हि लोका बलिम् हरन्तोन्मदन्त्यनुहा त्वम् न सुराणामशान्वयानाम् कुटस्थयाद्यः पुरुषः पुराणः त्वम् देव शक्त्याम् गुणकर्म योनौ रेतस्त्वजायाम् कविमादधेजः ततो वयम् सत्प्रमुखा जदर्थे बभूविमात्मन् करवाम् किम् ते त्वम् नः सुचक्षु परिदेहि शक्त्या देव क्रियार्थे जदनुग्रहाणाम् श्रीमद्भागवते महापुराणे परमहंस्याम् संहिताम् तृतीय स्कन्धे पञ्चमोऽध्यायः।